हरिः ॐ यातवेदतेषु न वामसो मम राति यतो निदहाति वेदः कनः पर्षदति दुर्गाणि विश्वानावेव सिन्धुम् दुरिताख्यग्निः तामग्निवर्णा तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टा दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरधितरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा ओश्च पृथ्वी बहुला न उर्वे भवातोकाय तनयाय शय्योः विश्वादिनो दुर्गः जातवेदस्तिन्धुन्ननावादुरितातिपर्षि अग्ने अत्रिवन्मनता गृणानोऽस्माकम् मोद्यविता तनूनाम् ऋतनाजितगुम्सहमानमुग्रमग्निगुम् हुवेम परमात्तदस्तात् तत्पर्षदति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः तत्नोषि कमेड्यो अध्वरेषु सनात्यहोतानव्यच्च सत्ति स्वाञ्चाग्ने तनुवम् पित्रय स्वास्मभ्यम् च सौभगमायजस्व गोभिर्जुष्टमयुजो निषिक्तन्तवेन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्टमभि संवसा नो वैष्णवीम् लोक इव मादयन्ता ॐ कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात्।